अथ षट्चत्वारिंशः सर्गः। हतान्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना रावणः संवृताकारश्चकारमतिमुत्तमा सविरूपाक्षयूपाक्षौ दुर्धरम् चैव राक्षसम् प्रघसम्भासकर्णम् च पञ्चसेनाग्रनायकान् सन्दिदेशदशग्रीवो वीरान्नयविशारदान् हनूमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि यातसेनाग्रगाः सर्वे महाबलपरिग्रहाः स वाजरथमातङ्गाः स कपिः शास्यतामिति यत्तैश्च खलु भाव्यम् स्यात्तमासाद्यवनालयम् कर्म चापि समाधेयम् देशकालाविरोधितम् न ह्यहम् तम् कपिम् मन्ये कर्मणा प्रतितर्कयन् सर्वथा तन्महद्भूतम् महाबलपरिग्रहम् वानरोऽयमिति ज्ञात्वा न हि शुध्यति मे मनः नैवाहम् तम् कपिम् मन्ये यथेयम् प्रस्तुता कथा भवेदिन्द्रेण वा सृष्टमस्मदर्थम् तपोबलात् स नागयक्षगन्धर्वदेवासुरमहर्षयः युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः तैरवश्यम् विधातव्यम् यलीकम् किञ्चिदेव नः तदेव नात्र सन्देहः प्रसह्य परिगृह्यता यातसेनाग्रगाः सर्वे महाबलपरिग्रहाः स वाजरथमातङ्गाः स कपिः शास्यतामिति नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः वाली च सह सुग्रीवो जाम्बवांश्च महाबलः नीलसेनापतिश्चैव ये चान्ये द्विविदादयः नैव तेषाम् गतिर्भीमा न तेजो न पराक्रमः न मतिर्न बलोत्साहो न रूपपरिकल्पनम् महत्सत्त्वमिदम् ज्ञेयम् कपिरूपम् व्यवस्थितम् प्रयत्नम् महदास्थाय क्रियतामस्य निग्रहः कामम् लोकास्त्रयस्येन्द्राः ससुरासुरमानवाः भवतामग्रतस्थातुम् न पर्याप्तारणाजिरे तथापि तु न यज्ञेन जयमाकाङ्क्षतारणे आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिः चञ्चला ते स्वामि वचनम् सर्वे प्रतिगृह्यमहौजसः समुत्पेतुर्महावेगाहुताशसमतेजसः रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः ततस्तु ददृशुर्वीरादीप्यमानम् महाकपिम् रश्मिमन्तमिवोद्यन्तम् स्वतेजो रश्मिमालिनम् तोरणस्थम् महावेगम् महासत्त्वम् महाबलम् महामतिम् महोत्साहम् महाकायम् महाभुजम् तम् समीक्ष्यैव ते सर्वे दिक्षु सर्वास्वस्थिताः तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः सतैः पञ्चभिराविद्धः शरैः शिरसि वानरः उत्पपातनदन्व्योम्नि दिशो दश विनादयन् ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः किरञ्छरशतैर्नैकैरभिपेदे महाबलः स कपिर्वारयामास तम् व्योम्नि शरवर्षिणम् वृष्टिमन्तम् पयोदान्ते पयोदमिव मारुतः अर्ज्यमानस्ततस्तेन दुर्धरेणानिलात्मजः चकारनिनदम् भूयो व्यवर्धत च वीर्यवान् सदूरम् सहसोत्पत्य दुर्धरस्य रथे हरिः निपपातमहावेगो विद्युद्राशिर्गिराविव ततः समथिताष्टाश्वम् रथम् भग्नाक्षकूबरम् विहायन्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः तम् विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितम् भुवि तौ जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ सताभ्याम् सहसोत्पृत्य विष्ठितो विमलेऽम्बरे मुद्गराभ्याम् महाबाहुर्वक्षस्य बृहतः कपिः तयोर्वेगवतोर्वेगम् निहत्य स महाबलः निपपात पुनर्भूमौ सुपर्ण इव वेगितः ससालवृक्षमासाद्य समुत्पाट्य च वानरः ताबुभौ राक्षसौ वीरौ जघानपवनात्मजः ततस्तां स्त्रीन् हतां ज्ञात्वा वानरेण तरस्विना अभिपेदे महावेगः प्रहस्य प्रघसो बली भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् एकतः कपिशार्दूलम् यशस्विनमवस्थितौ पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम् सताभ्याम् विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः समुत्पाट्य गिरेः शृङ्गम् समृगव्यालपादपम् जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः गिरिशृङ्गसु निष्पिष्टौ तिलशस्तौ बभूवतुः ततस्तेष्वसन्नेषु सेनापतिषु पञ्चसु बलम् तदवशेषम् तु नाशयामास वानरः अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान् सकपिर्नाशयामास सहस्राक्ष इवासुरान् हयैर्नागैस्तु रङ्गैश्च भग्नाक्षैश्च महारथैः हतैश्च राक्षसैर्भूमिरुद्धमार्गा समन्ततः ततः कपिस्तान् वजिनीपतीन्द्रणे निहत्य वीरान् सबलान् सवाहनान् तथैव वीरः परिगृह्य तोरणम् कृतक्षणः काल इव प्रजाक्षये इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशत् सर्गः।